अमरकोशे द्वितीयवर्गः व्योमवर्गः व्योम्नः नामानि अभ्रं पर्यन्तं समभूतो द्यो दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरं व्योम विश्वं व्ययति संवृणोतीति व्योम व्येङ् संवरणे इत्यस्माद् धातोः इदं पदं निष्पन्नं नाम प्रपञ्चं संवृणोति आकाशः अतः व्योम इति नाम तस्य एवम् अन्यः अर्थः विशेषेण अवति अवकाशदानेन इति व्योम अवरक्षणे इत्यस्माद् धातोः इदं पदं निष्पन्नं अवति आकाशः अवकाशप्रदानेन अतः व्योम इत्यपि तत्र अर्थः व्योमपुष्करम् अम्बरं पुष्करं पुष्यति अवकाशमिति पुष्करं पुषपुष्टौ इत्यस्माद् धातोः इदं पदं निष्पन्नं अवकाशं सर्वेभ्यः पुष्यति ददाति अतः पुष्करम् इति एवमेव पुष्कं नाम उदकं रातीति वा रादाने इत्यस्माद् धातोः इदं पदं निष्पन्नं नाम उदकं ददाति इति पुष्करम् इत्यपि तत्र अर्थः अस्ति अम्बरम् अम्बते शब्दायते इति अम्बरम् अभिशब्दे इत्यस्माद् धातोः इदं पदं निष्पन्नं आकाशः शब्दगुणकः अतः तत्र शब्दस्य उत्पत्तिस्थानम् आकाशः अतः अम्बरम् इति मेघैः नभातीति नभाः अनन्तरं पदं व्योमपुष्करमम्बरम् अनन्तरं नभोऽन्तरिक्षं गगनम् इति अनन्तरं नभः मेघैः न भातीति नभः सकारान्तनपुंसकलिङ्गशब्दः भादीप्तौ इत्यस्माद् धातोः इदं पदं निष्पन्नम् अनन्तरम् अन्तरिक्षम् अन्तः ईक्ष्यते जगत् अस्मिन् इति अन्तरिक्षम् ईक्ष दर्शने इत्यस्माद् धातोः इदं पदं निष्पन्नं नाम एतस्य अन्तः जगत् सर्वम् अपि अस्मिन्नेव ईक्ष्यते दृश्यते यतोहि सर्वेभ्यः आकाशः अवकाशं प्रददाति अतः जगत् आकाशे एव अस्ति अतः आकाशे एव ईक्ष्यते जगत् अत एव अन्तरिक्षम्।